परमात्मने नमः। अथ श्री विष्णु सहस्रनाम स्तोत्रम्। यस्य स्मरणमात्रेण जन्म संसार बंधनात् विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे नमः। समस्त भूतानां आदिभूताय भूभृते अनेक रूप रूपाय विष्णवे प्रभ विष्णवे। श्री वैशंपायन उवाच। श्रुत्वा धर्मान शेषेण पावनानि च सर्वश युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत। श्रीयुधिष्ठिर उवाच। किमेकं दैवतं लोके किं वाप्येकं परायणं स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाशुभम्। को धर्मः सर्वधर्माणां भवतः परमो मतः किं जपन्मुच्यते जन्म संसार बन्धनात्। श्रीभीष्म उवाच। जगत्प्रभुं देवदेवं अनन्तं पुरुषोत्तमं स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः। तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययं ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च।
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरं लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्। एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा। परमं यो महत्तेजः परमं यो महत्तपः परमं यो महद्ब्रह्म परमं यः परायणं पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलं दैवतं देवतानां च भूतानां यो व्ययः पिता।
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये। तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रं मे शृणु पापभयापहं। यानि नामानि गौणानि विख्यातानि महात्मना ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये। ॐ विश्वं विष्णुर्वशत्कारो भूतभव्यभवत्प्रभु भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागति। अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च।
योगो योगविदां नेता प्रधाना पुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः। सर्वः शर्वः शिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः। स्वयंभुः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः। अप्रमेयो ऋषिकेशः पद्मनाभोमरप्रभु विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः। अघ्रायः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्।
ईशानः प्राणदः प्राणो ज्येष्ठ श्रेष्ठ प्रजापति हिरण्यगर्भो भूगर्भो माधवो मधुसूदन ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रम अनुत्तमो दुराघर्ष कृतज्ञ कृतिरात्मवान् सुरेश शरणं शर्म विश्वरेता प्रजाभव अह संवत्सरो व्याल प्रत्यय सर्वदर्शन अज सर्वेश्वर सिक्त सिद्धि सर्वादिरच्युत वृष कपिरमेयात्मा सर्वयोग विनिसृत वसुर्वसुमना सत्य समात्मा सम्मित सम अमोघ पुंडरीकाक्षो वृषकर्मा वृषाकृति
रुद्रो बहुशिरा बभ्रु विश्वयोनि शुचिश्रवा अमृत शाश्वत स्थाणुर् वरारोहो महातपा सर्वगः सर्वविद्भानुर् विश्वक्सेनो जनार्दनः वेदो वेदविदव्यंगो वेदांगो वेदविद्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहः चतुर्दंष्ट्रश्चतुर्भुजः भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसु उपेन्द्रो वामनः प्रांशुः अमोघः शुचिरूर्जितः अतीन्द्रः संग्रहः सर्वो धृतात्मा नियमो यमः
वेद्यो वैद्यः सदा योगी वीरः माधवो मधु अतीन्द्रियो महामायो महोत्साहो महाबल महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति अनिर्देश्य वपु श्रीमान् अमेयात्मा महादृदृ महेश्वासो महिर्भर्ता श्रीनिवास सतां गति अनिरुद्ध सुरानन्दो गोविन्दो गोविदांपति मरीचीर्दमनो हंस सुपर्णो भुजगोत्तम हिरण्यनाभ सुतपा पद्मनाभ प्रजापति अमृत्यु सर्वद्रक् सिंह संधाता संधिमान् स्थिर अजो दुर्मर्षण शास्ता विश्रुतात्मा सुरारिह
गुरुर्गुरुतमो धाम सत्य सत्य पराक्रम निमिषो निमिष स्रग्वी वाचस्पति रुदारधि अग्रणीर्ग्रामणि श्रीमान् न्यायो नेता समीरण सहस्रमूर्धा विश्वात्मा सहस्राक्ष सहस्रपात् आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः अह संवर्तको वह्निः अनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वदृग् विश्वभुग्विभुः सत्कर्ता सत्कृतः साधुः झन्नुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृत् शुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषाहि वृषभो विष्णुः वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तश्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसु नैकरूपो बृहद्रूपः क्षिपिविष्टः प्रकाशन ओजस्तेजोद्युतिधर प्रकाशात्मा प्रतापन हृद्धस्पष्टाक्षरो मन्त्रश् चन्द्रांशुर्भास्करद्युति अमृतांशुद्भवो भानु शशबिन्दुः सुरेश्वर औषधं जगतः सेतु सत्यधर्मपराक्रम भूतभव्यभवन्नाथ पवनः पावनो नल कामः कामकृत्कान्त कामः कामप्रदः प्रभु
युगादि कृद्युगावर्तो नैकमायो महाशन अदृश्यो व्यक्तरूपश्च सहस्राजिदनन्तजित् इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपां निधिरधिष्ठानम् अप्रमत्तः प्रतिष्ठितः स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुः आदिदेवः पुरन्दरः अशोकस्तारणस्तारः शूरः शौरीर्जनेश्वरः अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः
पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरभृत् महर्दिरुद्धो वृत्तात्मा महाक्षो गरुडध्वज अतुलः शरभो भीम समयज्ञो हविर्हरि सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जय विक्षरो रोहितो मार्गो हेतुर्दामोदरः सह महीधरो महाभागो वेगवानमिताशन उद्भवः क्षोभणो देव श्रीगर्भः परमेश्वर करणं कारणं कर्ता विकर्ता गवनो गुह व्यवसायो व्यवस्थान संस्थान स्थानदो ध्रुव परर्दि परमस्पष्ट तुष्ट पुष्ट शुभेक्षण
रामो विरामो विरजो मार्गो नेयो नयो नयः वीरः शक्तिमतां श्रेष्ठो धर्मो धर्म विदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरथोक्षजः ऋतुः सुदर्शनः कालः परमेष्टी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारः स्थावरस्थाणु प्रमाणं बीजमव्ययम् अर्थो नर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः
यज्ञयेज्यो महेज्यश्च क्रतुः सत्रं सतां गति सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतः सुमुखः सूक्ष्म सुघोषः सुखदः सुहृत् मनोहरोचितक्रोधो वीरबाहुर्विदारण स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सि रत्नगर्भो धनेश्वर धर्मगुप्तधर्मकृद्धर्मी सदसत्क्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षण गभस्तिनेभिः सत्त्वस्थ सिंहो भूतमहेश्वर आदिदेवो महादेवो देवेशो देवभृत्कुरु
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः सोमपो मृतपः सोमः पुरुजित् पुरुषत्तमः विनयो जयः सत्यसन्धो दाशार्हः सात्वतांपतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधिरनन्तात्मा महोदधीशयोऽन्तकः अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः महर्षिः कपिलाचार्यः कृतघ्नो मेदिनीपतिः त्रिपदः त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्
महावराहो गोविन्द सुषेणः कनकाङ्गदि गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधर वेदा स्वाङ्गोजित कृष्णो दृढः सङ्कर्षणोच्युत वरुणो वारुणो वृक्ष पुष्कराक्षो महामन भगवान् भगहानन्दी वनमाली हलायुज आदित्यो ज्योतिरादित्य सहिष्णुर्गति सत्तम सुधन्वा खंड परशु दारुणो द्रविण प्रद दिवि स्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिज त्रिसामा सामगः सामा निर्वाणं भेषजं भिष सन्न्यासकृत्समः शान्तो निष्ठा शान्तिपरायणम्
शुभाङ्गः शान्तिदः सृष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ति निवृत्तात्मा संक्षेप्ता क्षेमकृत् शिवः श्रीवत्स वक्षः श्रीवास श्रीपतिः श्रीमताम्बरः श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः स्वक्षः स्वङ्गः शतानन्दो नन्दीर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्न संशयः उदीर्णः सर्वतश्चक्षुरनिशः शाश्वतस्थिरः भूषयो भूषणो भूतिर्विशोकः शोकनाशनः
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधन अनिरुद्धो प्रतिरथ प्रद्युम्नो मित विक्रम कालनेमिनिहावीर शौरिः शूरजनेश्वर त्रिलोकात्मा त्रिलोकेश केशव केशिहाहरि कामदेव कामपाल कामी कान्तः कृतागम अनिर्देशव पूर्विष्णुर् वीरोऽनन्तो धनञ्जय ब्रह्मण्यो ब्रह्मकृत् ब्रह्म 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 विवर्धन ब्रह्मविद्ब्राह्मणो ब्रह्मि ब्रह्मज्ञो ब्राह्मणप्रिय महाक्रमो महाकर्म महातेजा महोरग महाक्रतुर्महायज्व महायज्ञो महाहवि
स्तव्यस्तव प्रियस्तोत्रम् स्तुतिस्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः भूता वासो वासुदेवः सर्वासु निलयो नलः दर्पः दर्पदो दृप्तो दुर्धरोऽथा पराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः
एको नैकसवक्कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सल सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदि वीरहाविषमशून्य धृताशिरचलश्चल अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् सुमेधामेधजो धन्य सत्यमेधाधराधर तेजो वृषोद्युतिधर सर्वशस्त्रभृताम्बर प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रज चतुर्मूर्तिर्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिह शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्ञयी सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः महारिदो महागर्तो महाभूतो महानिधि कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो नीलः अमृतांशो अमृतवपुः सर्वज्ञः सर्वतोमुखः
सुलभः सुव्रतसिद्धः शत्रुजित् शत्रुतापनः न्यक्रोधो दुम्बरोश्वत्थः चाणूरान्ध्रनिषूदनः
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः अमूर्तिरनघोचिन्त्यो भयकृद्भयनाशनः
अणुर्बृहत्कृशस्थूलो गुणगृह्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः
भारभृत्कथितो योगी योगीशः सर्वकामदः आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः अपराजितः सर्वसः नियन्ता नियमो यमः
सत्त्ववान् सात्विकः सत्य सत्यधर्मपरायणः अभिप्रायः प्रियार्होर्हः प्रियकृत्प्रीतिवर्धनः
विहाय सगतिर्ज्योति सुरुचिर्भूतभुग्विभु रविर्विरोचनः सूर्य सविता रविलोचनः
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोग्रजः अनिर्विण्णः सदामर्षि लोकाधिष्ठानमद्भुतः
सनात् सनातनतमः कपिलः कपिरव्ययः स्वस्ति दस्वस्ति कृत् स्वस्ति स्वस्ति भुक् स्वस्ति दक्षिणा
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः शब्दातिगः शब्दसः शिशिरः शर्वरीकरः
अक्रूरः पेशलो दक्षो दक्षिणक्षमिणाम्बर विद्वत्तमो वीतवय पुण्यश्रवणकीर्तन
उत्तारणो दुष्कृतिः पुण्यो दुःस्वप्ननाशनः वीरः रक्षणः सन्तो जीवनः पर्यवस्थितः
अनन्तरूपोऽनन्तशिर्जितमन्युर्भयापः चतुरस्रोगभीरात्मा विदिशो व्याधिशो दिश
अनादिभूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः
आधारनिलयो धाता पुष्पहास प्रजागर ऊर्ध्वग सत्पथाचार प्राणद प्रणवःपण
प्रमाणम् प्राणनिलयः प्राणभृत् प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्ममृत्युजरातिगः
भूर्भुवस्वस्तरुस्तार सविता प्रपितामह यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहन
यज्ञभृद्यज्ञकृद्यग्नि यज्ञभुग्यज्ञसाधनः यज्ञान्तकृत् यज्ञगुह्यम् अन्नमन्नाद एव च
आत्मयोनि स्वयं जातो वैखानः सामगायन देवकी नन्दन स्रष्टा क्षितीशः पापनाशन
शङ्खभृन्नन्दकी चक्री शाङ्गधन्वा गदाधर रथाङ्गः पाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नमैति
इतीदं कीर्तनीयस्य केशवस्य महात्मना नाम्नां सहस्रं दिव्यानां अशेषेण प्रकीर्तितं य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् नाशुभं प्राप्नुयात् किञ्चित् सोमूत्रेह च मानवः वेदान्तको ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् धर्मार्थी प्राप्नुयात् धर्मम् अर्थार्थी चार्थमाप्नुयात् कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् यशः प्राप्नोति विपुलं ज्ञाति प्राधान्यमेव च अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् न भयं परिलाप्नोति वीर्यं तेजश्च विन्दति भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् स्तुवन्नाम सहस्रेण नित्यं भक्ति समन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायण सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानाम् अशुभम् विद्यते क्वचित् जन्म मृत्यु जरा व्याधि भयम् नैवोपजायते इमं स्तवमधीयान श्रद्धा भक्ति समन्वित युज्येतात्मसुख क्षान्ति श्रीधृति स्मृति कीर्तिभिः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामति भवन्ति कृतपुण्यानाम् भक्तानाम् पुरुषोत्तमे द्यौ स चन्द्रार्कनक्षत्रा खं दिशो भूर्भुवो दधि वासुदेवस्य वीर्येण विदृतानि महात्मनः ससुरासुरगन्धर्व सयक्षोरगराक्षसम् जगद्वशे वर्ततेदम् कृष्णस्य सचराचरम् इन्द्रियाणि मनो बुद्धि सत्त्वम् तेजो बलम् धृति वासुदेवात्मकान्याहु क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमानामाचारः प्रथमम् परिकल्पते आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयः पितरो देवा महाभूतानि धातव जङ्गमाजङ्गमम् चेदम् जगन्नारायणोद्भवम् योगो ज्ञानम् तथा साङ्ख्यम् विद्या शिल्पादि कर्म च वेदा शास्त्राणि विज्ञानम् एतत् सर्वम् जनार्दनात् एको विष्णुर्महद्भूतम् पृथग् भूतान्यनेकश त्रिल्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्यय इमम् सवम् भगवतो विष्णोर्व्यासेन कीर्तितम् पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्तुम् सुखानि च विश्वेश्वरमजम् देवम् जगतः प्रभवाप्ययम् भजन्ति ये पुष्कराक्षम् न देयान्ति पराभवम् भारते शतसाहस्रयाम् संहितायाम् वैयासिक्यामानुशासनिके पर्वणि विष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् सम्पूर्णम् हरि ओम् तत्सत् हरि ओम् तत्सत् हरि ओम् तत्सत्।